चन्द्रम् रसं वेद वेदान्त वेद्यं दुरापं सुगम्यं तदीयादिभिर्तालवघ्नं चल चन्द्रम् यशोदादिसंलालितं पूर्णकामं वृषोरञ्जनं प्राकृतस्थस्वरूपं दिनान्ते चन्द्रम् कृपा दृष्टि सम्पात सिक्त स्वकुञ्जं तदन्त स्थित श्रेय सम्यक् दशादं पुनस्तत्र तै सत्कृतै कान्दलीनं भजे राधिका वल्लभं कृष्णचन्द्रं भजे राधिका वल्लभं कृष्णचन्द्रं दक्ष्णोश्च निक्षिप्य दुःखं चलन्तं तदा तद्वियोगादिसम्पत्तिकारं भजे राधिका वल्लभं कृष्णचन्द्रं भजे राधिका वल्लभं कृष्णचन्द्रम् प्रदेशं महावैजयन्तील सत्पादयुग्मं सुकस्तूरिकादीप्तफालप्रदेशं भजे राधिका वल्लभं कृष्णचन्द्रं भजे राधिका वल्लभं कृष्णचन्द्रम् चित्तं समुत्पन्न तन्मानसैकान्तभावं भजे राधिका वल्लभं कृष्णचन्द्रं भजे राधिका वल्लभं कृष्णचन्द्रम् सान्निध्यमाप्नोति नित्यं कलौ यः स संसारदुःखातिरिक्तं प्रयातेव विष्णोः पदं निर्भयं तत् इति श्रीरघुनाथाचार्यकृतं श्रीकृष्णचन्द्राष्टकम्